अहश्च कृष्णमहरर्जुनम् च विवर्तेते रजसी वेद्याभिः वैश्वानरो जायमानो न राजा वातिरज्योतिषाग्निस्तमांसि न हन्तन्त्वम् न विजानाम्योदम् नयम् वजन्ति समरेतमानाः कस्य स्वेत्पुत्र इह भक्त्वानि परोपदात्यपरेण पित्रा स इत्तन्तुम् स विजानात्योदम् स भक्त्वान्ऋतुथा वदाति य ईञ्चिकेतदमृतस्य गोपा अपश्चरन् परो अन्येन पश्यन् अयम् होता अप्रथमः पश्यते ममिदम् ज्योतिरमृतम् मर्त्येष अयम् स जग्ने ध्रुव आनिषत्तो मर्त्यस्तन्वा आवर्धमानः ध्रुवम् ज्योतिर्निहितम् दृशयेकम् मनोजपिष्ठम् पथयत्स्वन्तः विश्वे देवाः समनसः सके एता एकम् क्रतुमभिविजन्ति साधो विमे कर्णापतयतो विचक्षुर्वी ईदम् ज्योतिर्हृदय आहितम् यत् विमे मनश्चरति दूर आधेः किम् स्विद्वक्ष्यामि किमु नो मनिष्ये विश्वे देवा अनमस्यन्भिजानास्त्वामग्ने तमसि तस्थिवांसम् वैश्वानरो वतूतजेनो मर्त्यो वतूतजेनः